इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। लोकसभा निर्वाचनस्य अद्य पञ्चमचरणीय मतदानाय सर्वाः सज्जताः व्यवस्थाश्च सम्पूरिताः। अस्मिन् चरणे द्वयोः केन्द्रशासित प्रदेशयोः अपि च षड् राज्यानाम् 49 लोकसभाक्षेत्रेभ्यः मतदानं भविष्यति। पञ्चमचरणेऽस्मिन् उत्तरप्रदेशस्य 14 आसनेभ्यः, महाराष्ट्रस्य 23 आसनेभ्यः, पश्चिमबंगालस्य 7 आसनेभ्यः, बिहार ओडिशा राज्ययोः प्रत्येकं 5 आसनेभ्यः, झारखण्डस्य आसनत्रयाय, जम्मू कश्मीर लद्दाखयोः च प्रत्येकं 1 लोकसभासनाय मतदानं भविष्यति। अस्मिन् चरणे प्रमुख प्रत्याशिषु केन्द्रीय मन्त्रिणः भारतीय जनता पार्टीति दलस्य वरिष्ठ नेतारश्च सन्ति, येषु राजनाथ सिंहः, स्मृति ईरानी, पीयूष गोयलः, कांग्रेस दलस्य राहुल गांधी, नेशनल कॉन्फ्रेंस इत्यस्य उमर अब्दुल्ला, लोक जनशक्ति पार्टीति दलस्य चिराग पासवानोऽपि वर्तते। इदं मतदानं अद्य प्रातः 7 वादनात् समारभ्य सायं 6 वादनं यावत् प्रचलिष्यति। ओडिशा विधानसभायाः 35 विधानसभासनेभ्यः अपि अद्यैव मतदानं भविष्यति। निर्वाचनायोगेन मतदानकेन्द्रेषु सर्वाणि प्रबन्धनानि विहितानि। मतदानकेन्द्रेषु पेयजल प्रसाधन सुव्यासन्द छाया इत्यादयः प्रबन्धाः कृताः, येन हि मतदातारः सुलभतया मतदानं कर्तुं शक्नुवन्ति। ओडिशा राज्येऽपि अद्य द्वितीये चरणे 35 विधानसभाक्षेत्रेभ्यः मतदानं भवति, यस्मिन् 65,200 प्रत्याशिनः निर्वाचनरणे सन्ति। ओडिशायाः मुख्यमन्त्रिणः बीजेडी प्रमुखस्य च नवीन पटनायकस्यापि भाग्यनिर्णयम् एतस्मिन् चरणे एव भविष्यति। 77-वर्षीयः नवीन पटनायकः द्वयोः नैर्वाचनिक क्षेत्रयोः गंजम जनपदस्य हिंजिली इत्यस्य, बलांगीर जनपदस्य च कांटाबाजी क्षेत्रस्य कृते नैर्वाचनिक प्रतिस्पर्धां विधास्यति। लोकसभा निर्वाचनस्य 2 अवशिष्ट चरणाभ्यां प्रचाराभियानं तीव्रस्तरे अस्ति। 6 चरणस्य मतदानं मासस्यास्य 25 दिनांके भविष्यति। 7 अन्तिमचरणाय च अग्रिममासस्य प्रथमे दिनांके मतदानं विधास्यति। प्रधानमन्त्री भाजपेति दलनेता च नरेन्द्रमोदी ह्यः झारखण्ड पश्चिमबंगाल राज्ययोः जनसभाः नैकाः सम्बोधितवान्। पश्चिमबंगालस्य पुरूलिया, विष्णुपुर, मेदिनीपुर क्षेत्रेषु जनसभाः सम्बोधयन् असौ प्रावोचत् यत् तृणमूल कांग्रेसदलम् अवैधरीत्या सूचनार्थं समागतजनानां स्वागतं करोति, परञ्च भारतं प्रत्यागतानां हिन्दू अल्पसंख्यकानां दृढतया विरोधमपि करोति। अपरत्र झारखण्डस्य जमशेदपुरे सभाम् एकां सम्बोधयन् श्रीमोदी समुदीरितवान् यत् देशस्य विकासाय व्यापाराः अति महत्वपूर्णाः वर्तन्ते। कांग्रेसदलस्य आलोचना कुर्वता अनेन निगदितं यत् यदा एतद्दलं व्यवसायिनां निवेशकानां च विरोधं करिष्यति तदा युवानः वृत्त्यवसराः कथं प्राप्स्यन्ति। ईरानदेशस्य राष्ट्रपतिम् इब्राहिम रईसी इत्यमुम् अपि च वरिष्ठाधिकारिणः च नीयमानम् उद्दग्रविमानं ह्यः दुर्घटनांगतम्। ईरानदेशस्य सर्वकारीय वार्ताभिकरणेन इरना इत्यनेन अस्याः वार्तायाः पुष्टि कृता। साम्प्रतं यावत् व्रणस्य उतवा प्रभावस्य सूचना न आगता इति वार्ताः।